इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः ललितमोहनः तिवारी। सम्प्रति वार्ताः श्रूयन्ताम्। ह्यः प्रधानमन्त्री नरेन्द्र मोदी मुम्बय्याः बान्द्रा कुर्ला क्षेत्रे इण्डियन पेपर सोसाइटी टावर्स इत्यस्य जनसंचार माध्यमस्य उद्घाटनं विहितवान्। अवसरेऽस्मिन् प्रधानमन्त्री नरेन्द्र मोदी प्रोक्तवान् यत् जनसंचार माध्यमैः नागरिकाणां हिताय नवीन पदक्षेपान् संवर्धयितुं प्रशासनं सहयोगं प्रदातव्यम्। पर्यावरण संरक्षणाय एक पेड़ मा के नाम इत्यस्य पदक्षेपस्य उदाहरणं प्रकटयन् प्रधानमन्त्री अवदत् यत् पदक्षेपोऽयं वैश्विक स्तरे प्रशंसितः। जनसंचार माध्यमाः अमुं पदक्षेपं जन आन्दोलने परिवर्तयितुं शक्नुवन्ति। असौ विकसित भारतस्य अग्रिम पञ्चविंशति वर्षीयां यात्रायां समाचार पत्र पत्रिकाणां भूमिकापि प्रतिपादिता। सप्तराज्यानां त्रयोदश विधानसभासनानां उपनिर्वाचनस्य परिणामः उद्घोषितः। इदानीं यावत् एकादश आसनानां परिणामः आगतः। कांग्रेसदलेन चत्वारि आसनानि, तृणमूल कांग्रेसदलेन त्रीणि आसनानि च विजितानि। पंजाबे आम आदमी पार्टी इति दलेन जालंधर पश्चिम विधानसभासने विजयोधिगतः। हिमाचल प्रदेशे कांग्रेसदले द्वे आसने, भाजपा दलेन च एकम आसनं विजितम्। पश्चिम बंगाले तृणमूल कांग्रेसदलेन त्रीणि आसनानि विजितानि। प्रधानमन्त्री नरेन्द्र मोदी ह्यः मुम्बय्याः गोरेगांव क्षेत्रस्य इंजीनियर सर्विस कंपनी इत्यस्य प्रदर्शनी केन्द्रे चतुश्शत कोट्यधिक नवविंशति सहस्र रूप्यकाणां मार्ग रेल जलपोत स्थानक परियोजनाः राष्ट्राय समर्पितवान्। केन्द्रीय गृहमन्त्रिणा अमितशाहेन ह्यः राजधान्यां नवदिल्ल्यां वाइब्रंट विलेज कार्यक्रमस्य कार्यान्वयनस्य समीक्षायै उच्चस्तरीयोपवेशनस्य अध्यक्षता कृता। अत्रावसरे गृहमन्त्री अवोचत् यत् प्रधानमन्त्रिणः नरेन्द्र मोदिनः नेतृत्वे प्रशासनं देशस्य सीमवर्ति ग्रामाणां सर्वांगीण विकासाय प्रतिबद्धम् अस्ति। अमुना स्थानीय निवासिभ्यः वृते अवसर प्रदानं, सीमवर्ति ग्रामेभ्यः पलायनं वारयितुं च सहभागिता संवर्धनं सबलं प्रतिपादितम्। गृहमन्त्रिणा उक्तं यत् सीमवर्ति ग्रामान् निकास नियुक्तैः केन्द्रीय सशस्त्र आरक्षिबलेन, सैन्यबलेन च सहकारी समितिनां साहाय्येन स्थानीय कृषि हस्तशिल्पोत्पादकानां च क्रयं विधाय तेभ्यः प्रोत्साहनं प्रदातव्यम्। अपि च उक्तं यत् स्थानीय निवासिभ्यः अपि सैन्यबलेभ्यः विद्यमानानां स्वास्थ्य वैविध्यानां च लाभः प्राप्तव्यः। अस्मिन् उपवेशने केन्द्रीय गृहसचिव अजय भल्ला, मन्त्रालयस्य अन्ये अधिकारिणश्च उपस्थिताः आसन्। अवधेयं यत् वाइब्रेंट विलेज कार्यक्रमस्य अन्तर्गतं अरुणाचल, हिमाचल, सिक्किम, लद्दाख, उत्तराखण्ड राज्यानां नवदश जनपदानां षड्चत्वारिंशत् प्रखण्डानां चयनित ग्रामाणां व्यापक विकासाय केन्द्र प्रायोजिता योजना विद्यते। जिम्बाब्वे देशे प्रचाल्यमाणायां विंशतिः प्रतिविंशतिः क्रिकेट क्रीडा स्पर्धायाः चतुर्थे द्वन्द्वे भारतदलेन जिम्बाब्वे दलं पराजितम्। अस्यां स्पर्धायां जिम्बाब्वे दलं सप्तक्रीडकानां हानिपुरस्सरं द्विपञ्चाशदधिक शतधावनांकाः विनिर्मिताः। प्रत्युत्तरे भारतदलं षड्पञ्चाशदधिक शतधावनांकान् विनिर्मीय अस्यां श्रृंखलायाम् अग्रेसरत्वं भजते। लंदन देशे या संजाते विम्बल्डन टेनिस स्पर्धाया अंतिमे द्वंद्वे चेक गणराज्यस्य क्रीडिका बारबोरा क्रेजिकोवा इटली देशस्य जेस्म पाउलिनीन पराजित्य महिला एकल ट्रॉफी विजिता। अस्याम स्पर्धायां क्रेजिकोवा षड् द्वे द्वे षड् षड् चत्वारि इत्यंकांतरालेन जेस्मा पाउलिनीन पराजित्य निज प्रथमं विम्बल्डन एकल प्रतियोगिता विजिता। पुरुष एकल वर्गे नोवाक जोकोविच अंतिमे द्वंद्वे कार्लोस अल्काराजम सम्मुखी करिष्यति। इति वार्ताः।